सदासत्त्वरूपं चिदानन्दकन्दं जगत्सम्भवस्थान संहारहेतुम् स्वभक्तेच्छयामानुजं दर्शयन्तं नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथम् भवद्वान्तविद्वांसमार्ताण्डमीद्यं मनोवागतीतं मुनिर्ध्यानगम्यम् जगद्व्यापकं निर्मलं निर्गुणं त्वां नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथम्
भवां बोधिमद्भाषितानां जनानां स्वपादाश्रितानां स्वभक्तिप्रियानां स्वभक्तिप्रियानां समुद्धारणार्थं कलौ सम्भवन्तं नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं
दाहिम्बवृक्षस्य मूलाधिवासात्सुदाश्राविणं तिक्तमप्यप्रियन्तम् तरुं कल्पवृक्षाधिकं साधयन्तं नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथम् सदा कल्पवृक्षस्य तस्याधिमूले भवद्भावभूज्या सपर्याधिदेवा नृणां कुर्वतां भुक्तिमुक्तिप्रदन्तं नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथम्
अनेकाश्रिता तर्कलीला विलासै समाविष्कृतेशान भास्वत्प्रभावम् भास्वत्प्रभावम् अहं भावहीनं प्रसन्नात्मभावं नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथम्
तां विश्रमाराममेवाभिरामं सदा सज्जनैः संस्तुतं सन्नमब्धि जनां मोददां भक्तभद्रप्रदन्तं नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथम्
अजन्माद्यमेकम् परं ब्रह्म साक्षात् स्वयं सम्भवम् राममेवावतीर्णम् भवद्दर्शनात् सम्पुनीता प्रभोऽहम् नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं